ज्ञानेषु मन्त्री भोजेषु माता शयनेषु रम्भा
मल्लिका पत्नी पति